गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवती धीनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरि ओम् ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचागशेः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहिगुम् श्रीः पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षुश्रुता सहस्रशो वैशागुम् हेण इमहे असौ यो वसर्पतिनीलक्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन् नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्णियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्याणाम् मुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नः शेषव आभुरस्य निशम् गतिः याते हेतिर्मे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाय नादताय धृष्णवे उभाव्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् ऋणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय
मृत्युञ्जयाय सर्वेश्वराय
सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बब्लुषाय विव्याधिनेनानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायाततावीने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय सपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमति तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रीकाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृचभ्यश्च वो नमो नमोऽस्यभ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रभ्यश्च वो नमो नमः स्तिष्ठद्भ्यो दावभ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः శత్రుభ్యః సంగ్రహీతృభ్యశ్చ భో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ భో నమో నమః కులాలేభ్యః కర్మారేభ్యశ్చ భో నమో నమః పుంజిష్టేభ్యో నిషాదేభ్యశ్చ భో నమో నమ ఇషుకృద్భ్యో దన్వకృద్భ్యశ్చ భో నమో నమో మృగయుభ్యశ్వనిభ్యశ్చ భో నమో నమ శ్వభ్యశ్వపతిభ్యశ్చ భో నమః నమో భవాయ చ రుద్రాయ చ నమ శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమ కపర్దినే చ యుక్తకేశాయ చ నమ సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపివిష్టాయ చ నమో మీదుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్రయాయ చ ప్రథమాయ చ నమః ఆశవే చాజిరాయ చ నమః శీఘ్రయాయ చ శేవ్యాయ చ నమః ఊర్వ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వేభ్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జఘన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురతాయ చ నమః శూరాయ చ వబిందతే చ నమో వర్మిణే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమః శీక్ష్మేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాత్యాయ చ నీప్యాయ చ నమః సూర్యాయ చ సరస్యాయ చ నమో నాద్యాయ చ వైశంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః తామ్రాయ చారుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వధాయ చ దూరే వధాయ చ నమో హంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్కారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః शिवाय च शिवतराय च नमस्तेत्याय च कुल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाग्याय च नमः शष्प्याय च पेण्याय च नमः सिगत्याय च प्रवाह्याय च नमः इरिण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्व्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पघुरमाणाय च विघ्नते च नमः आखिदते च प्रखिदते च नमो वक्रिकेभ्यो देवानागुमृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीरलोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा भेमा रोमो येषाम् किञ्चनाममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृडजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयत्तेराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृते क्षयद्वीराय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितो वदेर्हविष्मन्तो नमसा विधेमते आराते गोघ्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अधि च देव प्रूयदा च नः शर्म यच्छद्विपराः सुहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतिरघायोः अवस्थिरामगवद्यस्तनुष्वमीडत्तोकायतनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधम् निदाय कृत्यम् वसा न आचर पिनाकम् बिभ्रदागहे विकिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीना मुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्याम् तेषागुम् सहस्रयोजने वधन्वानि तन्मसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि नीलग्रीवाचितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पथिरक्षय ऐलभृदायव्युधः ये तीर्थानि प्रचरन्ति श्रृगावन्तो निषङ्गिनः य एतावन्तस्य भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयो जने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदेचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु तेऽयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् वे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सु य ओषधीषु यो रुद्रो विश्वभुवना विवेश तस्मै रुद्राय नमो अस्तु येते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनानेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि अश्विशुः सुदन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवा वर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महादेतम् च मे वाक् च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुम्नि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्य ಸತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ಪರಿಮಾ ಚ ಮೇ ಪ್ರತಿಭಾ ಚ ಮೇ ಭಸ್ಮಾ ಚ ಮೇ ದ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಸಶ್ಚ ಮೇ ತ್ವಿಶಿಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪತಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂ ಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ತ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ ಸಂವಿಚ್ಚ ಮೇ ಜ್ಞಾತ್ರಂ ಚ ಮೇ ಸೋಶ್ಚ ಮೇ ಪ್ರಸೋಶ್ಚ ಮೇ ಸ್ಥಿರಂ ಚ ಮೇ ಲಯಶ್ಚ ಮರುತಂ ಚ ಮೇ ಮೃತಂ ಚ ಮೇ ಯಕ್ಷ್ಮಂ ಚ ಮೇ ನಾಮಯಶ್ಚ ಮೇ ಜೀವಾತುಶ್ಚ ಮೇ ದೀರ್ಘಾಯುತ್ವಂ ಚ ಮೇ ನ ಮಿತ್ರಂ ಚ ಮೇ ಅಭಯಂ ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಶಯನಂ ಚ ಮೇ ಸೋಷಾ ಚ ಮೇ ಸುದಿನಂ ಚ ಮೇ ಊರ್ಚ ಮೇ ಸೋನೃತಾ ಚ ಮೇ ಪಯಶ್ಚ ಮೇ ರಸಶ್ಚ ಮೇ ಘೃತಂ ಚ ಮೇ ಮಧು ಚ ಮೇ ಸದ್ಭಿಶ್ಚ ಮೇ ಸಪೀತಿಶ್ಚ ಮೇ ಕೃಷಿಶ್ಚ ಮೇ ವೃಷ್ಟಿಶ್ಚ ಮೇ ಜೈತ್ರಂ ಚ ಮೌದ್ಭಿದ್ಯಂ ಚ ಮೇ ರಯಿಶ್ಚ ಮೇ ರಾಯಶ್ಚ ಮೇ ಪುಷ್ಟಂ ಚ ಮೇ ಪುಷ್ಟಿಶ್ಚ ಮೇ ವಿಭುಚ ಮೇ ಪ್ರಭುಚ ಮೇ ಬಹುಚ ಮೇ ಭೂಯಶ್ಚ ಮೇ ಪೂರ್ಣಂ ಚ ಮೇ ಪೂರ್ಣತರಂ ಚ ಮೇ ಕ್ಷಿತಿಶ್ಚ ಮೇ ಕೋಯವಾಶ್ಚ ಮೇನಂ ಚ ಮೇ ಶುಚ್ಚ ಮೇ ಪ್ರಿಯಶ್ಚ ಮೇ ಯವಾಶ್ಚ ಮೇ ಮಾಶಾಶ್ಚ ಮೇ ತಿಲಾಶ್ಚ ಮೇ ಮುದ್ಗಾಶ್ಚ ಮೇ ಕಲ್ವಾಶ್ಚ ಮೇ ಗೋಧೂಮಾಶ್ಚ ಮೇ ಮಸುರಾಶ್ಚ ಮೇ ಪ್ರಿಯಂಗವಶ್ಚ ಮೇಣವಶ್ಚ ಮೇ ಶ್ಯಾಮಕಾಶ್ಚ ಮೇ ನಿವಾರಾಶ್ಚ ಮೇ ಅಶ್ವಾಚ ಮೇ ಮೃತ್ತಿಕಾ ಚ ಮೇ ಗಿರಯಶ್ಚ ಮೇ ಪರ್ವತಾಶ್ಚ ಮೇ ಸಿಕತಾಶ್ಚ ಮೇ ವನಸ್ಪತಯಶ್ಚ ಮೇ ಹಿರಣ್ಯಂ ಚ ಮೇ ಯಶ್ಚ ಮೇ ಸೀಸಂ ಚ ಮೇ ತಪುಶ್ಚ ಮೇ ಶ್ಯಾಮಂ ಚ ಮೇ ಲೋಹಂ ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಆಪಶ್ಚ ಮೇ ವಿರೋಧಶ್ಚ ಮ ಔಷಧಯಶ್ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಚಂ ಚ ಮೇ ಕೃಷ್ಟಪಚ್ಚಂ ಚ ಮೇ ಗ್ರಾಮ್ಯಾಶ್ಚ ಮೇ ಪಶವ ಆರಣ್ಯಾಶ್ಚ ಯಜ್ಞೇನ ಕಲ್ಪಂತಾಂ ವಿತ್ತಂ ಚ ಮೇ ವಿತ್ತಿಶ್ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭೂತಿಶ್ಚ ಮೇ ವಸು ಚ ಮೇ ವಸತಿಶ್ಚ ಮೇ ಕರ್ಮ ಚ ಮೇ ಶಕ್ತಿಶ್ಚ ಮೇ ಅರ್ಥಶ್ಚ ಮ ಏಮಶ್ಚ ಮ ಇತಿಶ್ಚ ಮೇ ಗತಿಶ್ಚ ಮೇ ಅಗ್ನಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸೋಮಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸವಿತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಸರಸ್ವತೀ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಉಷಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಬೃಹಸ್ಪತಿಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಮಿತ್ರಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ವರುಣಶ್ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ತ್ವಷ್ಟಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ ಧಾತಾ ಚ ಮ ಇಂದ್ರಶ್ಚ ಮೇ విష్ణుశ్చ మ ఇంద్రశ్చ మేష్విణౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మే అంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అవంశుశ్చ మే రశ్మిశ్చ మేదాభ్యశ్చ మే ధృపతిశ్చ మ ఉపాగుంశుశ్చ మేంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రయణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే దిగ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పాత్నీవతశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేధిశ్చ మే దృష్ట్యాశ్చ మే శ్రుతశ్చ మే చమసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవనే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మ ఆధవనీయశ్చ మ ఆగ్నేర్ధం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దిశ్చ మే దిశ్చ మే జ్యోశ్చ మే శక్వరేరంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామ్రశ్చ మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే జగ్నేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవీ చ మే దిత్యవాచ్చ మే దిత్యౌహీ చ మే పంచావిశ్చ మే పంచావీ చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాచ్చ మే తుర్యౌహీ చ మే పష్టవాచ్చ మే పష్టౌహీ చ మ ఉక్షా చ మే వశా చ మరుషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం గుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాక్ యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంసతిశ్చ మే त्रयो विगुंसतिश्च मे पञ्च विगुंसतिश्च मे सप्त विगुंसतिश्च मे नव विगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंसच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेऽष्टाविगुंसतिश्च मे द्वात्रिगुंसच्च मे षट्रिगुंसच्च मे चत्वारिगुंसच्च मे चतुश्चत्वारिगुंसच्च मेऽष्टाचत्वारिगुंसच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इडादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्धामदानि सगुंसि षद्विश्वे देवासोत्तवाच पृथिवीमातर्वामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यातगुम् शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभाय पितरोणु मदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छैयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शम् चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद् स भूमिम् विश्वतो वृत्त्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अथोज्यायागश्च पुरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वोदयत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म युग्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्तसमिदः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यारुषयश्च ये तस्माद्यज्ञात् सर्वभूतः सम्भृतम् पृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान
आरण्यान् ग्राम्याश्च ये तस्मात् यज्ञात् सर्वभूतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कथिथा व्यकल्पयन् मुखम् किमस्य कौ बाहो कावोरुपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ऊरो तदस्य यद्वैश्यः पद्भ्यां शूद्र अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजम् तदेवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे रेष्यते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनव्यात्तम् इष्टम् मनिषाणा अमम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् ಷಣ್ಣ ಅಸ್ತು ದ್ವಿಪದೇ ಷಂ ಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಆತೋ ನ ಇಂದ್ರ ಕ್ಷುಮಂತಂ ಚಿತ್ರಂ ಗ್ರಾಭಂ ಸಂಗೃಭಾಯ ಮಹಾಹಸ್ತಿ ದಕ್ಷಿಣೇನ ವಿದ್ವಾಹಿತ್ವಾ ತು ವಿಕೂರ್ಣಿಂ ತು ವಿದೇಷ್ಟಂ ತು ವಿಮಘಂ ತು ವಿಮಾತ್ರಮವೋಭಿಃ ನಹಿ ತ್ವಾ ಶೂರದೇವಾನಮರ್ತಾ ಸೋದಿತ್ಸಂತಂ ಭೀಮಂ ನಗಾಂ ವಾರಯಂತೇ ಯೇತೋನ್ವಿಂದ್ರಂ ಸ್ತವಾಮೇಶಾನಂ ವಸ್ವಸ್ವರಾಜಂ ನರಾಥ ಸಾಮರ್ಥಿ ಷಣ್ಣಃ ಪ್ರಸ್ತೋಷದುಪಗಾದಿ ಸಚ್ರವತ್ಸಾಮಗೀಯಮಾನಂ ಅಭಿರಾಧಸಾ ಜುಗುರತ್ ಆನೋ ಭರದಕ್ಷಿಣೇನಾಭಿಸವ್ಯೇನ ಪ್ರಮೃಷಾ ಇಂದ್ರಮಾನೋ ವಸೋ ನಿರ್ಭಾಕ ಉಪಕ್ರಮಸ್ವಾಭರಧೃಷಧಾ ದೃಷ್ಣೋ ಜನಾನಾಂ ಅಧಾಶೋಷ್ಟರಸ್ಯ ವೇದಃ ಇಂದ್ರಯವುನುತೆ ಅಸ್ತಿ ವಾಜೋ ವಿಪ್ರೇ ವಿಸ್ಸನಿತ್ವಃ ಅಸ್ಮಾಭಿಃ ಸುತಂ ಸನು ಹಿ ಸದ್ಯೋಜುವಸ್ತೆ ವಾಜಾ ಅಸ್ಮಭ್ಯಂ ವಿಶ್ವಶ್ಚಂದ್ರಾಃ ವಶೈಶ್ಚ ಮಕ್ಷೋಜರಂತೆ ಗಣಾನಾಂ ತ್ವಾ ಗಣಪತಿಂ ಹವಾಮಹೆ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾಂ ಬ್ರಹ್ಮಣಸ್ಪತ ಆರಶೃಣ್ವನ್ ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ನಿಷುಸೇದ ಗಣಪತೆ ಗಣೇಶು ತ್ವಾಹುರ್ವಿ ಪ್ರಥಮಂ ಕವೀನಾಂ ನರ್ತೆ ತ್ವಕ್ರಿಯತೆ ಕಿಂಚ ನಾರೇ ಮಹಾಭರ್ಗಂ ಮಘವನ್ ಚಿತ್ರವರ್ಚ ಅಭಿಖ್ಯಾನೋ ಮಘವನ್ನಾಧಮಾನಾಂ ಸಖೇ ಬೋಧಿ ವಸುಪತೆ ಸಖೇನಾಂ ರಣಂ ಕೃತಿರಣಕೃಚ್ಛತ್ಯ ಶುಷ್ಮಾ ಭಕ್ತಿ ಚಿದಾಭಜಾರಾಯೇ ಅಸ್ಮಾನ್ ಓಂ ಶಾಂತಿ 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 ಓಂ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತುಃ ಪ್ರಸವೇ ಅಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಉಷ್ಣೋಹಸ್ತಾಭ್ಯಾಂ ಅಶ್ವಿನೋರ್ಭೈಷಜ್ಯೇನ ತೇಜಸೇ ಬ್ರಹ್ಮವಚ್ಚಸಾ ಯಾಭಿಷಿಂಚಾಮಿ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತುಃ ಪ್ರಸವೇ ಅಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಉಷ್ಣೋಹಸ್ತಾಭ್ಯಾಂ ಸರಸ್ವತ್ಯೈರ್ಭೈಷಜ್ಯೇನ ವೀರ್ಯಾಯಾನಾದ್ಯಾಯಾಭಿಷಿಂಚಾಮಿ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತುಃ ಪ್ರಸವೇ ಅಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಉಷ್ಣೋಹಸ್ತಾಭ್ಯಾಂ ಇಂದ್ರಸೇಂದ್ರಿಯೇಣ ಶ್ರಿಯಶಸೇ ಬಲಾಯಾಭಿಷಿಂಚಾಮಿ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತುಃ ಪ್ರಸವೇಶ್ವಿನೋರ್ಬಾಹುಭ್ಯಾಂ ಉಷ್ಣೋಹಸ್ತಾಭ್ಯಾಗುಂ ಸರಸ್ವತ್ಯೈ ವಾಚೋ ಯಂತುರ್ಯಂತ್ರೇಣಾಗ್ನೇ ಸ್ವಾ ಸಾಮ್ರಾಜ್ಯೇನಾಭಿಷಿಂಚಾಮೀಂದ್ರಸ್ಯ ತ್ವಾ ಸಾಮ್ರಾ ಜೇನಾಭಿಷಿಂಚಾಮಿ ಬೃಹಸ್ಪತೇ ಸ್ವ ಸಾಮ್ರಾಜ್ಯೇನಾಭಿಷಿಂಚಾಮಿ ಆಯುರಾಶಾಸ್ತೆ ಸುಪ್ರಜಾಸ್ತ್ವಮಾಶಾಸ್ತೆ ಸಜಾತವನಶ್ಯಾಮಾಶಾಸ್ತೆ ಉತ್ತರಾನ್ ದೇವಯಜ್ಞಾಮಾಶಾಸ್ತೆ ಭೂಯೋ ಹವಿಷ್ಕರಣಮಾಶಾಸ್ತೆ ದಿವ್ಯಂ ಧಾಮಾಶಾಸ್ತೆ ವಿಶ್ವಂ ಪ್ರಿಯಮಾಶಾಸ್ತೆ ಯದನೇನ ಹವಿಷಾಶಾಸ್ತೆ ತದಶ್ಯಾತ್ತದೃತ್ಯಾತ್ ತದಸ್ಮೈ ದೇವಾರಾಸಂತಾಂ ದ್ರಿಪದಾದಿವೇನ ಮುಮುಚಾನಃ ಸ್ವಿನ್ನಸ್ನಾದ್ವಿಮಲಾದಿವಾ ಊತಂ ಪವಿತ್ರೇಣೇವಾಜ್ಯಂ ಆಪಶುಂಧಂತು ಮೈನಸಃ ಭೂರ್ಭುವಸ್ಸು ವೋರ್ಭೂರ್ಭುವಸ್ಸು ವೋರ್ಭೂರ್ಭುವಸ್ಸು ವಃ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಪೂರ್ಣಮದಃ ಪೂರ್ಣಮಿದಂ ಪೂರ್ಣಾತ್ ಪೂರ್ಣಮುದಚ್ಯತೆ ಪೂರ್ಣಸ್ಯ ಪೂರ್ಣಮಾದಾಯ ಪೂರ್ಣಮೇವಾವಶಿಷ್ಯತೆ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿಃ ಓಂ ಈಶಾವಾಸ್ಯಮಿದಗುಂ ಸರ್ವಂ ಯತ್ಕಿಂಚ ಜಗತ್ಯಾಂ ಜಗತ್ ತೇನ ತ್ಯಕ್ತೇನ ಭುಂಜೇತಾಮಾಗೃದಃ ಕಸ್ಯ ಸ್ವಿದ್ಧನಂ ಕುರ್ವನ್ನೇವೇಹ ಕರ್ಮಾನಿ ಜಿಜೀವಿಷೇಚ್ಛತಗುಂ ಸಮಾಃ ಏವಂ ತ್ವಯಿ ನಾನ್ಯತೇತೋಸ್ತಿ ನ ಕರ್ಮ ಲಿಪ್ಯತೆ ನರೇ ಅಸುರ್ಯಾನಾಮತೆ ಲೋಕಾ ಅಂಧೇನ ತಮಸಾವೃತಾಃ ತಾಗಸ್ತೆ ಪ್ರೇತ್ಯಾಭಿಗಚ್ಛಂತಿ ಏಕೇಚಾತ್ಮಹನೋ ಜನಾಃ ಅನೇಜದೇಕಂ ಮನಸೋ ಜವೇಯೋ ನೈನ ದೇವಾ ಪ್ರುವನ್ ಪೂರ್ವಮರ್ಷತ್ ತದ್ಧಾವತೋ ನಾನ್ಯತ್ತೇತಿ ತಿಷ್ಠತ್ ತಸ್ಮಿನ್ ನಭೋ ಮಾತರಿಶ್ವಾನಧಾರಿ ತದೇಜತಿ ತನ್ನೇಜತಿ ತದ್ಧೂರಿ ತದ್ವಂತಿಕೇ ತದಂತರಸ್ಯ ಸರ್ವಸ್ಯ ತದು ಸರ್ವಸ್ಯಾಸ್ಯ ಬಾಹ್ಯತಃ ಯಸ್ತು ಸರ್ವಾಣಿ ಭೂತಾನ್ಯಾತ್ಮನ್ನೇವಾನುಪಶ್ಯತೆ ಸರ್ವಭೂತೇಷು ಚಾತ್ಮಾನಂ ತತೋ ನ ವಿಜುಗುಪ್ಸತೆ ಯಸ್ಮಿನ್ ಸರ್ವಾಣಿ ಭೂತಾನ್ಯಾತ್ಮೈವ ಭೂತ್ವಿಜಾನತಃ ತತ್ರ ಕೋ ಮೋಹಃ ಶೋಕ ಏಕತ್ವಮನುಪಶ್ಯತಃ ಸಪರ್ಯಗಾಚುಕ್ರಮಕಾಯಮವ್ರಣಮಸ್ತಾವಿರಗುಂ ಶುದ್ಧಮಪಾಪವಿದ್ಧಂ ಕವಿರ್ಮನೀಷೀ ಪರಿಭೂಃ ಸ್ವಯಂ ಭೂರ್ಯಾತ್ತಚ್ಚಧೋರ್ಧಾನ್ಯದದಾಚ್ಛಾಶ್ವತೇಭ್ಯ ಸಮಾಭ್ಯಃ ಅಂಧಂ ತಮ ಪ್ರವಿಶಂತಿ ಯೇದ್ಯಾಮುಪಾಸತೆ ತತೋ ಭೂಯ ಇವ ತೇ ತಮೋಯೌ ವಿದ್ಯಾಯಾಗುಂ ರಥಾಃ ಅನ್ಯದೇವಾಹುರ್ವಿದ್ಯಯಾ ಅನ್ಯದಾ ಹುರವಿದ್ಯಯಾ ಇತಿ ಸುಶ್ರುಮಧೀರಾಣಾಂ ಯೇನಸ್ತದ್ವಿಚ ಚಕ್ಷಿರೇ ವಿದ್ಯಾಂ ಚ ವಿದ್ಯಾಂ ಚ ಯಸ್ತದ್ವೇದೋ ಭಯಗುಂ ಸಹ अवित्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रथाः अन्यदेवाहुः सम्भवादन्यदा पुरसम्भवात् इति शुश्रुमधीराणाम् येनस्तद्विचचक्षिरे सम्भूतिम् च विनाशम् च यस्तत्वेदो भयगुंसः विनाशेन मृत्युम् तीर्ध्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि तम् मुखम् तत्त्वम् पोषन्न पावृणु सत्यधर्माय दृष्टये पोषन्ने करिषेयमसूर्यः प्राजापत्यव्योहरश्मे समोह तेजो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमधेदम् भस्मान्तगुम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्नेनय सुपथाराये अस्मान् विश्वानि देववयुरानि विद्वान् युयोज्यस्मज्जुहुरानमेनो भूयिष्ठाम् तेन व उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रतिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते सहस्रशीर्षम् देवम् विश्वाक्षम् विश्वशम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वतः परमा नित्यम् विश्वम् नारायणगुम् हरिम् विश्वमेवेदम् पुरुषस्तद्विश्वमुपजीवति पतिम् विश्वस्यात्मेश्वरगुम् शाश्वतगुम् शिवमच्युतम् नारायणम् महाग्नेयम् विश्वात्मानम् परायणम् नारायण परो ज्योतिरात्मा नारायणपरः नारायण परम् ब्रह्म तत्त्वम् नारायणपरः नारायण परो ध्याता ध्यानम् नारायणपरः यच्च किञ्चिज्जगत्सर्वम् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वम् व्याप्य नारायणस्थितः अनन्तमव्ययम् कविगुम् समुद्रेऽन्तम् विश्वशम्भुवम् पद्मकोशप्रतीकाशगुम् हृदयम् चाप्यतोमुखम् अतो निष्ट्यावितस्यान्ते नाभ्यामुपरितिष्ठति ज्वालमालाकुलम् भाति विश्वस्यायतनम् महत् सन्ततगुम् शिलाभिस्तुलम् वत्याकोशसन्निभम् तस्यान्ते सुशिरगुम् सूक्ष्मम् तस्मिन् सर्वम् प्रतिष्ठितम् तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः तिर्यगूर्ध्वमदशायीरस्मयस्तस्य सन्तता सन्तापयति स्वम् देहमापादतलमस्तकः तस्य मध्ये वह्निशिखाणीयोर्ध्वा व्यवस्थितः मीनतो यदमध्यस्था विद्युल्लेखे भभास्वर नीवारशोकपत्तन्वी पीताभा सत्यनुपमा तस्या शिखाया मध्ये परमात्मा व्यवस्थितः स ब्रह्म स शिवः स हरिस्सेन्द्र सोऽक्षरः परमः स्वराट् ऋतगुम् सत्यम् परम् ब्रह्म पुरुषम् कृष्ण पिङ्गलम् ऊर्ध्वरेतम् विरूपाक्षम् विश्वरूपाय वै नमो नमः नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः शान्तिः शान्तिः।